ಸೇನಾಪತಿಗುಂ ಹವಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಿಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮಣ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತ ತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೂರ ಘೋರ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಗಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇ ವಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಧಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಃ ಸುಮಂಗಲಃ ಏಷೇ ಮಾಗುಂ ರುದ್ರಾ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ ಅದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ನಿಯೋರ್ಜಾಂ ವ್ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ವಗು ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಷೇರ್ಯ ಚಲ್ಯಾನಾಮುಕಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನುಃ ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾ ದೇಹೇ ತ್ರಿರ್ಮೀಡುಷ್ಟಮಾಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ವಮ ಯಕ್ಷ್ಮಯ ಪರಿಭುಜ ನಮಸ್ತೆ ಅತ್ವಾಯುಧಾಯ ನಾತದಾಯ ಧೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುದೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವಿಡಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷುಧಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ನಾನ್ಯೇ ದಿಶಾ ಚಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪರಯೇ ನಮೋ ನಮಃ సస్మింజరాయత్వి శ్రీమతి పతీనాం పతయే నమో నమో బభ్లుషాయ వ్యాలినే నానాం పతయే నమో నమో హరికేశాయోపవీతిని పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయాదతావిని క్షేత్రానాం పతయే నమో నమ సూతారాహంత్యాయవనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమః కృష్ణవీతాయ ధావతే సత్వనాం పతయే నమః నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగినే సేనానాం పతయే నమో నమో నిషంగిన ఇషుధిమతి తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే సాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమ శృకావిభ్యో జిగాగుంసద్భ్యో ముష్టతాం పతయే నమో నమో సిమద్భ్యో నక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషినే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్ఛద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టద్భ్యో దావత్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్తృగుం హతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రతేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులారేభ్య కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమ సర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమ కపర్దినే చ యుక్తకేశాయ చ నమ सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेडुष्टमाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम शीघ्रियाय च शेभ्याय च नम ऊर्म्याय च वस्वन्याय च नम शोधस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धियाय च नम सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च कल्याय च नम श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरताय च नम शूराय च बभिन्दते च नमो वर्मिणे च वरूदिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो दृष्टवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नम तीक्ष्णेशवे चायुधिने च नम स्वायुधाय च सुधन्वने च नम श्रुत्याय च पत्याय च नम कात्याय च नीप्याय च नम शोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नम कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेध्याय च विद्युत्याय च नम इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नम शम्भवे च मयो भवे च नम शङ्कराय च वयस्कराय च नम शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नम वार्याय च वार्याय च नम प्रतरणाय चोत्तरणाय च नम आतार्याय च लाद्याय च नम षष्ट्याय च वेण्याय च नम सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नम किगुंशिलाय च क्षयणाय च नम कपर्दिने च पुरस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेयाय च नम कात्याय च गह्वरेष्टाय च नमो हृदय्याय च निवेश्याय च नम पागुंसव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सौर्म्याय च नमः पर्ण्याय च पर्णशत्याय च नमो पगुरमाणाय च भिद्धते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्च राममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने शयद्वीराय प्रभरामहे मतिम् यथा न शमस त्रिपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननाथुरम् मृडानो रुद्रो तनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्यामतव रुद्रप्तनीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररेषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते आराते गोग्र उत पूरुषग्ने शयद्वीराय सुम् नमस्मे ते अस्तु रक्षा च नो अधि च देव ब्रूयदा च न शर्म यच्च त्रिवर्हाः सुहिश्रुतम् गर्त च दयुवारम् मृगन्नभीवमुपहत्तुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्तु सेनाः परिणो रुद्रस्य हेतृणत्तु परित्रेशस्य दुर्मतिरगायोः अवस्तिना मगवद्यस्तनश्वमीर्वस्तोकाय तनयाय मृडया मीरुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्रिम् वदान आचर पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्याम् तेषागुम् सहस्रयोजने वदन्वानि तन्मसे अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधे नीलग्रीवाशितिकण्ठाः सर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासकपर्दिनः ये अन्येषु विभिद्यन्ति पात्रेषु पिबतो जनान् ये पदाम्बतिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचलन्ति शुकावन्तो निषङ्गिणः एतावन्तश्च भूयागु सश्च दिशो रुद्रावितस्तिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि ये चामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिण दश प्रतिचीर्दशोदिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् विश्वो यश्च नो वेष्टितम् वोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्यो मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यत्सुषुसुधन्वायो विश्वस्य शयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्नाविष्णो सजोषसेमावर्धन्तु वाङ्गिरः दुम्नैर्वाजेभिरागतम् वाजस्य मे प्रसवस्य मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे मश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सोमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भजम् च मे सुखम् च मे शयनम् च मे शोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मोद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भोजश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मेऽन्नम् च मे क्षुच्च मे व्रेहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सीतम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च मापश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च मेमश्च महिरिश्च मे गतिश्च मे अग्निश्च महीन्द्रश्च मे सोमश्च महीन्द्रश्च मे सविता च महीन्द्रश्च मे सरस्वती च महीन्द्रश्च मे पूषा च महीन्द्रश्च मे बृहस्पतिश्च महीन्द्रश्च मे मित्रश्च महीन्द्रश्च मे वरुणश्च महीन्द्रश्च मे स्पष्टा च महीन्द्रश्च मे धाता च महीन्द्रश्च मे विष्णुश्च महीन्द्रश्च मेऽश्विनौ च महीन्द्रश्च मे मरुतश्च महीन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च महीन्द्रश्च मेऽन्तरिक्षम् च महीन्द्रश्च मे योश्च महीन्द्रश्च मे दिशश्च महीन्द्रश्च मे मूर्धा च महीन्द्रश्च मे प्रजापतिश्च महीन्द्रश्च मे अंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे औष्णश्च मे पात्नीपतश्च मे हार्योजनश्च मे इर्ध्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे परवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ म आधवनेयश्च म आग्नेन्द्रम् च मे हविद्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पतताश्च मेव भृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेष्वमेधश्च मे पृथिवी च मे दितिश्च मे तिथिश्च मे द्योश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पम् ताम्रक्ष मे साम च मे सोमश्च मे जजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या भद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्योहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्योहे च मे पष्ठवाच्च मे पष्ठौहे च म उक्षा च मे वशा च म ऋषभश्च च मे वेहच्च मे नद्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ध्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे ष्टाचत्वारिगुंशच्च मे बालश्च प्रसवश्चापिजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादे बहुर्मनुर्यज्ञनेर्बृहस्पतिरुक्ता मदानिशगुंसि षद्विश्वे देवासूक्तवाच पृथिविमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो कृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छ भव्यम् उतामृतत्वस्येषाः यदन्नेनातिरोहते एतावाजस्य महिमा अतो जायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोद्भौ दैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यता पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्म इद्मः शरद्धभिः सप्तास्यासन् परिधयः त्रिसप्त समिधः कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् वृषदाज्यम् पशोगुस्तागुश्चग्रेवायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचस्सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कगिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु का ऊरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरो तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्य अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोऽध्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् रदिशस्य दस्रः तमेवम् विद्वान्नमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्यासन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसाश्च विश्वकर्मणः समवत्तताधि तस्य त्वष्टाभिरहद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् मदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मणे रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे ह्रेश्चे लक्ष्मेश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अवम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शन् चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पूषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् भुवेम प्रातर्जितम् भगमुग्रगुम् भुवेम वयम् पुत्रमधितेर्यो विधर्ता आर्द्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजाचिद्यम् भगम् भक्ष्येत्याह भग प्रणेतर्भग सत्यराधो भगेमाम् प्रियमुदवदन्नः भग प्रणो जनय गोभिरश्वैर्भग प्रणुभिर्नृवन्तः स्याम उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अन्ना उतोदितामघवन् सूर्यस्य वयम् देवानागुम् सुमतौ स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तः स्याम त्वम् त्वा भगः सर्व इज्जो हवे विसनो भगपुर एता भवेह समध्वरा योषसो न मन्ददधिक्रावे वशुचये पदाय अर्वाचीनम् वसुमिदम् भगन्नो रथमिवाश्व वाजिन आवहन्तु अश्वावतीर्गोमतीर्न उषासो वीरवती सदमुच्छन्तु भद्राः हृतम् दुहाना विश्वतः प्रपीणा योजम् पात स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्तमथा भागम् चिकीर्षते अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः
ताम् आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये शीर्मा देवी जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारा मात्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षिप्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वान्निर्नुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करीषिणीम् ईश्वरेकुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममापूतिम् वाचः सत्यमशीमहे पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमाम् श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्लीतवस मे गृहे निज देवी मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः आर्द्राम् यक्करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः ताम् आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यः शुचिः प्रयतो भूत्वा जुहुयाराज्यमन्वहम् श्रियः पञ्चदशर्चम् च श्रीकामः सततम् जपेत् पद्मारणे पद्म ऊरु पद्माक्षे पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षेन सौख्यम् लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनम् मे जुषताम् देवी सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवेरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो नाशुभा मतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपे सदा वर्षन्तु देवि दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषोदहि పద్మప్రియే పద్మిని పద్మహస్తే పద్మాలయే పద్మదళాయతాక్షీ విశ్వప్రియే విష్ణుమనోనుకూలే త్వత్పాద పద్మం మయి సన్నిధస్వ యాసా పద్మాసనస్తా విపులకటితటే పద్మపత్రాయతాక్షీ గంభీరావర్తనాభిస్తర భరణమితా శుభ్రవస్త్రోత్తరీయా లక్ష్మీర్దివ్యైర్రజేంద్రైర్మణిగణకచితైర్నాభిరాహేమకుంభైః నిత్యం సా పద్మహస్తా మమ వసతు గృహే సర్వమాంగళ్యయుక్తా లక్ష్మీం క్షీరసముద్రరాజతనయాం శ్రీరంగధామేశ్వరీ దాసీ భూత సమస్తదేవవనితాం లోకైకదీపాంగురాం శ్రీమన్మందకటాక్షలబ్ధ విభవద్బ్రహ్మేంద్ర గంగాధరాం మాం త్రైలోక్యకుటుంబినీం సరసిదాం వందే ముకుంద ప్రియాం సిద్ధలక్ష్మీర్మోక్షలక్ష్మీర్జయ లక్ష్మీర్సరస్వతీ శ్రీలక్ష్మీర్వరలక్ష్మీశ్చ ప్రసన్నా మమ సర్వదా వరాంకుశోపాశమభీతిముద్రాం కరైర్వహంతీం కమలాసనస్థాం బాలార్కకోటిప్రతిభాం నృణేత్రాం వరేహమంబాం జగదీశ్వరీం త్వాం మంగళమాంగళ్యే శివే సర్వార్థసాధికే శరణ్యే త్ర్యంబకే దేవే నారాయణి నమోస్తుతే మహాలక్ష్మీ చ విద్మహే విష్ణుపత్నీ చ ధీమహి తన్నో లక్ష్మీ ప్రచోదయాత్. ఓం శాంతి శాంతి శాంతిః. జాతవేదసే సునవామసో మమరాతి యతో నిదహాతి వేదః సనః పరిషదతి దుర్గాణి విశ్వానావేవ సింధుం దురితాత్యగ్నిః తామగ్నివర్ణాం తపసా జ్వలంతీం వైరోచనీం కర్మఫలేషు జుష్టాం దుర్గాం దేవీగుం శరణమహం ప్రపద్యే సుతరసి తరసే నమః. అగ్నే త్వం పారయానవ్యో అస్మాన్ స్వస్తిభిరతి దుర్గాణి విశ్వా పూశ్చ పృథ్వీ బహుళాన ఉర్వీ భవా తోకాయతనయాయశయ్యోః విశ్వాని నో దుర్గః జాతవేదః సింధున్న నావా దురితాతి పర్షి అగ్ని అత్రివన్మనసా గృణానో స్మాకం బోధ్యవితా తనూనాం పృతనాజితగుంసహమానముగ్రమగ్నిగుం హువేమ పరమాసధస్తార్. సనః పరిషదతి దుర్గాణి విశ్వా క్షామద్దేవో అతిదురితాత్యగ్నిః ప్రత్నోషి కమేద్యో అద్వరేషు సనాచ్చ హోతానవ్యశ్చ సత్సే స్వాంచాగ్ని తనువం పిప్రయస్వాస్మభ్యం చ సౌభగమాయజస్వా గోభిర్జుష్టమయుజో నిషిక్తం తవేంద్ర విష్ణోరను సంచరేమ నాకస్య పృష్ఠమభి సంవసానో వైష్ణవీం లోక ఇహమాలయంతాం. కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహే తన్నో దుర్గి ప్రచోదయాత్. ఓం శాంతి శాంతి శాంతిః. ఓం అహం రుద్రేభిర్వసూభిశ్చరామ్యహమాదిత్యైరుత విశ్వదేవైః అహం మిత్రావరుణో భాభిభర్మ్యహమింద్రాగ్ని అహమశ్వినోభా అహం సోమాహనసం విభర్మ్యహం త్వష్టారభుత పూషణం భగం అహం దాదామి ద్రవీణం హవిష్మాతే సుప్రావ్యే यजामानाय सुन्वते अहम् राष्ट्रे सङ्गमानि वसूनाम् चिकितुषे प्रथमा यज्ञयानाम् कामा देवा व्याददु पुरुत्रा भूरिस्थात्राम् भूर्याम् वेषयन्ते मया सो अन्नावत्यो विपश्याति य प्राणीति यैम् शृणोत्युक्तम् अमन्तवो मान्त उपक्षियन्ति श्रुधि श्रोत श्रद्धिवन्ते वदामि अहमेव स्वयमिदम् वादामि दुष्टम् देवेभिरुतमानुषेभिः यम् कामयेतम् तामुग्रम् कृणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सुमेधाम् अहम् रुद्राय धनुरादानोमि ब्रह्मद्विषे शराभेहन्त वाऊ अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आविवेश अहम् सोमे पितरामस्य मूर्धन्म मयोनिरप्स्वा अन्तस्सामुद्रे ततो वितिष्ठे भुवनानु विश्वोतामोन्द्याम् वर्ष्मणोपस्पृशामि अहमेव वाता इव प्रवारभामाना भुवनानि विश्वा परो दिवा पर येना पृथिव्येता वा देमहिना सम्बाभूवा ॐ शान्ति शान्ति शान्तिः पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुड प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदघृष्ट्राय धीमहि तन्नो नारसिगुम्ह प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ